गीता साधक संजीवनी तीसरा अध्याय श्लोक 12 से 22 तक।
वसुदेव सुतं देवं कंस चारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरुं। इष्टान् भोगानि भूदेव दास्यन्ति यज्ञभाविता तैर्दत्तान् प्रदायैभ्यो यो भुङ्क्ते स्तेन एव स यज्ञश्रेष्ठाशिनः सन्तु मुच्यन्ते सर्वकेल्विषैः भुञ्जते ते त्वघं पाप ये पचन्त्यात्मकारणात् अन्नाद्भवन्ति भूतानि पर्जन्यादान्न सम्भव यज्ञाद्भवति पर्जन्यो यज्ञकर्म समोद्भव कर्म ब्रह्मोद्भवं वृद्धि ब्रह्माक्षरसमोद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् एवं प्रवर्तितं चक्रं नानुवर्तयति हय अभायुरेन्द्रियारामो मोघं पार्थ सजीवति यस्वात्मरतिरेव स्यादात्मतृप्तश्च मानव आत्मन्येव स सन्तुष्टस्तस्य कार्यं न विद्यते नैव तस्य कृतेनार्थो न कृते नेह कश्चन न सास्य सर्वभूतेषु कश्चिदर्थव्यपाशय तस्मादसक्तः सततं कार्यं कर्म समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पुरुष कर्मणैव हि संसिद्धि मा स्थिता जनकादय लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि वसुदेव सुतं देवं कंस चारुर